ओम नमो भगवते वासुदेवाय। अथ दशमोऽध्यायः। नारद उवाच, भक्तियोगस्य तत्सर्वमन्तरायतयार्भकः। मन्यमानो ऋषिकेशं स्मयमान उवाच। प्रह्लाद उवाच, मां प्रलोभयोत्पत्त्यासक्तं कामेषु तैर्वरैः, तत्सङ्गभीतो निर्विण्णो मुमुक्षुस्त्वामुपाश्रितः। भृत्यलक्षणजिज्ञासुर्भक्तं कामेष्व चोदयत्, भवान् संसारबीजेषु हृदयग्रन्थिषु प्रभो। नान्यथा ते खिलु गुरो घटेत करुणात्मनः, यस्त आशिष आशास्ते न स भृत्यः स वैवणिक्। आशासानो न वै भृत्यः स्वामिन्याशिष आत्मनः, न स्वामी भृत्यतः स्वाम्यमिच्छन् यो राति चाशिषः। अहं त्वकामस्त्वद्भक्तस्त्वं च स्वाम्यन पाश्रयः, नान्यथेहावयोरर्थो राजसेवकयोरिव। यदि राशीश मे कामान् वरांस्त्वं वरदर्शभ, कामानां हृद्य संरोहम् भवतस्तु वृणे वरम्। इन्द्रियाणि मन प्राण आत्मा धर्मो धृतिर्मतिः, ह्रीश्रीस्तेजः स्मृतिः सत्यं यस्य नश्यन्ति जन्मना। विमुञ्चति यदा कामान् मानवो मनसि स्थितान्, तर्येव पुण्डरीकाक्ष भगवत्त्वाय कल्पते। नमो भगवते तुभ्यं पुरुषाय महात्मने, हरयेऽद्भुतसिंहाय ब्रह्मणे परमात्मने। नृसिंह उवाच, नैकान्तिनो मे मयि चात्विहाशिष आशासते मुत्र च ये भवद्विधाः, अथापि मन्वन्तरमेतदत्र दैत्येश्वराणामनुभुङ्क्ष्व भोगान्। कथा मदीया जुषमाणप्रियास्त्वमावेश्य मामात्मनि सन्तमेकम्। सर्वेषु भूतेष्वधियज्ञमीशम् यजस्व योगेन च कर्म हिन्वन्। भोगेन पुण्यम् कुशलेन पापम् कलेवरम् कालजवेन हित्वा, कीर्तिम् विशुद्धाम् सुरलोकगीताम् विताय मामेशसि मुक्तबन्धः। य एतत्कीर्तयेन्मह्यम् त्वया गीतमिदम् नरः, त्वाम् च माम् च स्मरन् काले कर्मबन्धात् प्रमुच्यते। प्रह्लाद उवाच, वरम् वरय एतत्ते वरदेशान् महेश्वर, यदनिन्दत्पिता मे त्वाम विद्वांस्तेज ऐश्वरम्। विद्धामर्षाशय साक्षात् सर्वलोकगुरुम् प्रभुम्, भ्रातृहेति मृषा दृष्टिस्त्वद्भक्ते मयि चाघवान्। तस्मात् पिता मे पूयेत दुरन्तात् दुस्तरादघात्, पूतस्तेपाङ्गसन्दृष्टस्तदा कृपणवत्सल। श्रीभगवानुवाच, त्रिसप्तभिः पिता पूतः पितृभिः सह ते नघ, यत्साधोऽस्य गृहे जातो भवान् वै कुलपावनः। यत्र यत्र च मद्भक्ताः प्रशान्ताः समदर्शिनः, साधवः समुदाचारास्ते पूयन्त्यपि कीकटाः। सर्वात्मना न हिंसन्ति भूतग्रामेषु किञ्चन, उच्चावचेषु दैत्येन्द्र मद्भावेन गतस्पृहाः। भवन्ति पुरुषालोके मद्भक्तास्त्वामनुव्रताः, भवान् मे खलु भक्तानां सर्वेषां प्रतिरूपधृक्। कुरुत्वं प्रेतकार्याणि पितुः पूतस्य सर्वशः, मदङ्गस्पर्शनेनाङ्गलोकान् यास्यति सुप्रजाः। पितृयं च स्थानमातिष्ठ यथोक्तं ब्रह्मवादिभिः, मय्यावेश्य मनस्तात कुरु कर्माणि मत्परः। नारद उवाच, प्ररादोऽपि तथा चक्रे पितुर्यत्साम्परायिकम्, यथा भगवान् राजन्नभिषिक्तो द्विजोत्तमैः। प्रसादसुमुखम् दृष्ट्वा ब्रह्मा नरहरिम् हरिम् स्तुत्वा वाग्भिः पवित्राभिः प्राह देवादिभिर्वृतः। ब्रह्मोवाच, देवदेवाखिलाध्यक्ष भूतभावन पूर्वज, दिष्ट्या ते निहत पापो लोकसन्तापनोऽसुरः। योऽसौ लब्धवरो मत्तो नवध्यो मम सृष्टिभिः, तपोयोगबलोन्नद्धः समस्तनिगमानहन्। दिष्ट्यास्य तनय साधुर्महाभागवतोऽर्भकः, त्वया विमोचितो मृत्योर्दिष्ट्या त्वाम् समितोऽधुना। एतद्वपुस्ते भगवन् ध्यायतः प्रयतात्मनः, सर्वतो गोप्त्रिसन्त्रासान् मृत्योरपि जिघान् सतः। नृसिंह उवाच, मैवम् वरोऽसुराणाम् ते प्रदेयः पद्मसम्भव, वरः क्रूरनिसर्गाणामहीनामृतम् यथा। नारद उवाच, इत्युक्त्वा भगवान् राजन् तत्रैवान्तर्दधे हरिः, अदृश्यः सर्वभूतानाम् पूजितः परमेष्ठिना। ततः सम्पूज्य शिरसा ववन्दे परमेष्ठिनम्, भवम् प्रजापतीन् देवान् प्रह्लादो भगवत्कलाः। ततः काव्यादिभिः सार्धम् मुनिभिः कमलासनः, दैत्यानाम् दानवानाम् च प्रह्लादमकरोत्पत्तिम्। प्रतिनन्द्य ततो देवा प्रयुज्य परमाशिषः, स्वधामानिययुः राजन् ब्रह्माद्याः प्रतिपूजिताः। एवम् तौ पार्षदौ विष्णोः पुत्रत्वम् प्रापितौ दितेः, श्रुतिस्थितेन हरिणा वैरभावेन तौ हतौ। पुनश्च विप्रशापेन राक्षसौ तौ बभूवतुः, कुम्भकर्णदशग्रीवौ हतौ तौ रामविक्रमैः। शयानौ युधि निर्भिन्न हृदयौ रामसायकैः तच्चित्तौ जहतुर्देहम् यथा प्राक्तन जन्मनि ताविहाथ पुनर्जातौ शिशुपालक रूषजौ हरौ वैरानुबन्धेन पश्यतस्ते समीयतुः एनः पूर्वकृतम् यत्तद् राजानः कृष्णवैरिणः जहुस्त्वन्ते तदात्मानः कीटः पेशस्कृतो यथा 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 भगवतो भक्त्या परमयाभिधा नृपाश्चैद्यादय सात्म्यम् हरेस्तच्चिन्तया ययुः आख्यातम् सर्वमेतत्ते यन्माम् त्वम् परिपृष्टवान् दमघोषसुतादीनाम् हरे सात्म्यमपि द्विषाम् एषा ब्रह्मण्यदेवस्य कृष्णस्य च महात्मनः अवतारकथा पुण्या वसो यत्रादिदैत्ययोः प्रह्लादस्यानुचरितम् महाभागवतस्य च भक्तिर्ज्ञानम् विरक्तिश्च याथात्म्यम् चास्य वै हरेः सर्गस्थित्यप्ययेशस्य गुणकर्मानुवर्णनम् परावरेषाम् स्थानानाम् कालेन व्यत्ययो महान् धर्मो भागवतानाम् च भगवान् येन गम्यते आख्यानेऽस्मिन् समाम्नातमाध्यात्मिकमशेषतः य एतत् पुण्यमाख्यानम् विष्णोर्वीर्योपबृंहितम् कीर्तयेत् श्रद्धया श्रुत्वा कर्मपाशैर्विमुच्यते एतद्यादिपुरुषस्य मृगेन्द्रलीलाम् दैत्येन्द्रयूथपवतम् प्रयत पठेत दैत्यात्मजस्य च सताम् प्रवरस्य पुण्यम् श्रुत्वानुभावमकुतो भयमेति लोकम् यूयम् त्रिलोके बत भूरि भागा लोकम् पुनानामुनयोभियन्ति येषाम् गृहानावसतीति साक्षात् गूढम् परम् ब्रह्म मनुष्यलिङ्गम् स वा अयम् ब्रह्म महत् विमृग्य कैवल्य निर्वाण सुखानुभूतिः प्रिय सुहृद्व खलु मातुलेय आत्मारहणीयो विधिकृत् गुरुश्च न यस्य साक्षात् भवपद्मजादिभिरूपम् धिया वस्तुतयोपवर्णितम् मौनेन भक्त्योपशमेन पूजितः प्रसीदतामेष स सात्वताम् पतिः स एष भगवान् राजन् व्यतनोद्विहतम् यशः पुरा रुद्रस्य देवस्य मयेनानन्तमायिना राजोवाच कस्मिन् कर्मणि देवस्य मयोऽहम् जगदीशितुः यथा चोपजिता कीर्ति कृष्णेनानेन कथ्यताम् नारद उवाच निर्जिता असुरा देवैर्युध्यनेनोपबृंहितैः मायिनाम् परमाचार्यम् मयम् शरणमाययुः स निर्माय पुरस्तिस्रो हैमीरोप्यायसीर्विपुः दुर्लक्ष्यापाय संयोगा दुर्वितर्क्य परिच्छदाः ताभिस्ते सुरसेनान्यो लोकान् स्त्रीन् सेश्वरान् नृप स्मरन्तो नाशयाञ्चक्रुः पूर्ववैरमलक्षिताः ततस्ते सेश्वरा लोका उपासाद्येश्वरम् विभो त्राहिनस्तावकान् देव विनष्टांस्त्रिपुरालयैः अथानुगृह्य भगवान् मा भैष्टेति सुरान् विभुः शरम् धनुषि सन्धाय पुरेष्वस्त्रम् व्यमुञ्चत ततोऽग्निवर्ण इषव उत्पेतुः सूर्यमण्डलात् यथा मयूखसन्दोहा नादृश्यन्त पुरो यतः तैःस्पृष्टाव्यसवः सर्वे निपेतुः स्म पुरौकसः तानानीय महायोगी मयः कूपरसे क्षिपत् सिद्धा मृतरसस्पृष्टा वज्रसारा महौजसः उत्तस्थुर्मेघदलना वैद्युता इव वन्नयः विलोक्य भग्नसङ्कल्पम् विमनस्कम् वृषध्वजम् तदायम् भगवान् विष्णुश्चत्रोपायमकल्पयत् वत्सा आसीत् तदा ब्रह्मा स्वयम् विष्णुरयम् हि गौः प्रविश्य त्रिपुरम् काले रसकूपामृतम् पपौ तेऽसुरायपि पश्यन्तो नन्यषेधन् विमोहिताः तद्विज्ञाय महायोगी रसपालानिदम् जगौ स्वयम् विशोकशोकार्तान् स्मरन् दैवगतिम् च ताम् देवोऽसुरो नरोऽन्यो वा नेश्वरोऽस्तीह कश्चन आत्मनोऽन्यस्य वा दिष्टम् दैवेनापोहितुम् द्वयोः अथासौ शक्तिभिः स्वापिः शम्भोः प्राथनिकम् व्यधात् धर्मज्ञानविरक्तृद्धि तपो विद्याक्रियादिभिः रथम् सूतम् ध्वजम् वाहान् धनुर्वर्मशरादियत् सन्नद्धो रथमास्थाय शरम् धनुरुपाददे शरम् धनुषि सन्धाय मुहूर्ते भिजितीश्वरः ददाह तेन दुर्भेद्या हरोत त्रिपुरो नृप दिविदुन्दुभयो ने दुर्विमानशतसङ्कुलाः देवर्षिपितृसिद्धेशा जयेति कुसुमोत्करैः अवाकिरञ्जगुर्रिष्टा नन्दतुश्चाप्सरोगणाः एवम् दग्ध्वा पुरस्तिस्रो भगवान् पुरः नृप ब्रह्मादिभिः स्तूयमानः स्वधाम प्रत्यपद्यत एवम् विधान्यस्य हरे स्वमायया विडम्बमानस्य नृलोकमात्मनः वीर्याणि गीतान् ऋषिभिर्जगद्गुरोर्लोकान् पुनानान्यपरम् वदामि किम् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् सप्तमस्कन्धे युधिष्ठिरनारदसंवादे त्रिपुरविजयो नाम दशमोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।